ओम नमो भगवते वासुदेवाय। अथ पंचमोऽध्यायः। श्रीशुक उवाच, तस्यां सपाञ्चजन्यां वै विष्णुमायोपब्रह्मितः हर्यश्वसंज्ञानयुतं पुत्रान जनयत् विभुः। अपृथक् धर्मशीलास्ते सर्वे दाक्षायणा नृप, पित्रा प्रोक्ताः प्रजाः सर्गे प्रतीचीं प्रययुर्दिशम्। तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम्। तदुपस्पर्शनादेव विनिर्धूतमलाशयाः धर्मे पारमहंसे च प्रोत्पन्नमतयोऽप्युत। तेऽपि रेतप एवोग्रम् पित्रा देशेन यन्त्रिताः प्रजा विवृद्धये यत्तान् देवर्षिस्तान् ददर्शः। उवाच चाथ हर्यश्वा, कथम् स्रक्ष्यते वै प्रजाः। अदृष्ट्वान्तम् भुवो यूयम् बालिशाबतपालकाः, तथैकपुरुषम् राष्ट्रम् बिलम् चादृष्टनिर्गमम्, बहुरूपाम् स्त्रियम् चापि पुमांसम् पुंश्चलीपतिम्। नदीमुभयतो वाहाम् पञ्च पञ्चाद्भुतम् गृहम्, क्वचिद्धंसम् चित्रकथम् क्षौरपव्यम् स्वयम् भ्रमिम्। कथम् स्वपितुरादेशमविद्वांसो विपश्चितः, अनुरूपमविज्ञाय अहो सर्गम् करिष्यथ। श्रीशुक उवाच, तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया, वाचःकूटम् तु देवर्षेः स्वयम् विममृशुर्धिया। भूक्षेत्रम् जीवसङ्गम् यद् अनादि निजबन्धनम्, अदृष्ट्वा तस्य निर्वाणम् किमसत्कर्मभिर्भवेत्। एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः, तमदृष्ट्वा भवम् पुंसः किमसत्कर्मभिर्भवेत्। पुमान्नैवैति यद्गत्वा बिलस्वर्गम् गतो यथा, प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत्। नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता, तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत्। तत्सङ्गभ्रंशितैश्वर्यम् संसरन्तम् कुभार्यवत्, तद्गतिरबुधस्येह किमसत्कर्मभिर्भवेत्। सृष्ट्यप्ययकरीम् मायाम् वेलाकूलान्तवेगिताम् मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत्। पञ्चविंशतितत्त्वानाम् पुरुषोद्भुतदर्पणम् अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत्। ऐश्वरम् शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत्। कालचक्रम् भ्रमिस्तीक्ष्णम् सर्वम् निष्कर्षयज्जगत् स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत्। शास्त्रस्य पितुरादेशम् यो न वेद निवर्तकम्, कथम् तदनुरूपाय गुणविश्रम्भ्युपक्रमेत्। इति व्यवसिता राजन् हर्यश्वा एकचेतसः, प्रययुस्तम् परिक्रम्य पन्थानमनिवर्तनम्। स्वरब्रह्मणि निर्भात ऋषिकेशपदाम्बुजे अखण्डम् चित्तमावेश्य लोकाननुचरन्मुनिः। नाशम् निशम्य पुत्राणाम् नारदाच्छीलशालिनाम् अन्वतप्यतकः शोचन् सुप्रजस्वम् शुचाम् पदम्। स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः, पुत्रान् जनयद्दक्षः सबलाश्वान् सहस्रशः। तेऽपि पित्रा समादिष्टाः प्रजा सर्गे धृतव्रताः, नारायणसरोजग्मुर्यत्र सिद्धाः स्वपूर्वजाः। तदुपस्पर्शनादेव विनिर्धूतमलाशयाः, जपन्तो ब्रह्म परमम् ते पुस्तेऽत्र महत्तपः। अभक्षा कतिचिन्मासान् कतिचित् वायुभोजनाः, आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम्। ओम् नमो नारायणाय पुरुषाय महात्मने, विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि। इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः, उपेत्य नारदप्राह वाचःकूटानि पूर्ववत्। दाक्षायणा संशृणुत गदतो निगमम् मम, अन्विच्छतानुपदवीम् भ्रातॄणाम् भ्रातृवत्सलाः। भ्रातॄणाम् प्रायणम् भ्राता यो नुतिष्ठति धर्मवित्, स पुण्यबन्धु पुरुषो मरुद्भिः सह मोदते। एतावदुक्त्वा प्रययौ नारदो मोघदर्शनः, तेऽपि चान्वगमन्मार्गम् भ्रातॄणामेव मारिष। सध्रीचीनम् प्रतीचीनम् परस्यानुपथङ्गताः, नाद्यापि ते निवर्तन्ते पश्चिमायामिनीरिव। एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः, पूर्ववन्नारदकृतम् पुत्रनाशमुपाशृणोत्। शुक्रोधनारदायासौ पुत्रशोकविमूर्छितः, देवर्षिमुपलभ्याः रोषाद् विस्फुरिताधरः। दक्ष उवाच, अहो असाधो साधूनाम् साधुलिङ्गेन नस्त्वया, असाध्वकार्यर्भकाणाम् भिक्षोर्मार्गः प्रदर्शितः। ऋणैस्त्रिभिरमुक्तानामीमांसितकर्मणाम् विद्यातः श्रेयसपाप लोकयोरुभयोः कृतः। एवम् त्वम् निरनुक्रोशो बालानाम् मतिभिद्धरेः, पार्षदमध्ये चरसि यशोः निरपत्रपः। ननु भागवता नित्यम् भूतानुग्रहकातराः, ऋते त्वाम् सौहृदग्नम् वै वैरम् करम वैरिणाम्। नेत्थं पुंसां विरागस्या त्वया केवलिना मृषा मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनं नानुभूय न जानाति पुमान् विषय तीक्ष्णताम् निर्विद्येत स्वयं तस्मान्न तथा भिन्नधीः परैः यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनां कृतवानसि दुर्मर्षं विप्रियं तव मर्षितं तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम्। श्रीशुक उवाच प्रतिजग्राह तद्बाढं नारदः साधु सम्मतः एतावान् साधुवादो हि तितिक्षेतेश्वर स्वयम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।